ಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನ ಶೃಣ್ವನ್ನೋದಿಭಿಸ್ಸೀದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜಿನೀವತೀ ಧೇನಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋದ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೇ ಬಾಹುಭ್ಯಾಮುತತೇ ನಮಃ ಯಾತೈಷ ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನು ಶಿವಾಶರವ್ಯಾಯಾತವತಯಾ ನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೋರಘೋರಾ ಪಾಪಕಾಶಿನಿ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಚಾಕಶೀ ಯಾಮಿಷುಂ ಗಿರಿಶಂ ತಹಸ್ತೇ ವಿಭಶ್ಯಸ್ತವೇ ಶಿವಾಂಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಗುಂಸೀ ಪುರುಷಂ ಜಗತೆ ಶಿವೇ ನವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಚಾವದಾಮಸಿ ಯತಾ ನತ್ಸರ್ವಮಿಜ್ಜಗತ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತೆ ಅಧ್ಯವೋಚದಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕೆ ಅಹೇಗಶ್ಚ ಸರ್ವಾಂಜಂಭಯನ್ ಸರ್ವಾಶ್ರಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಭಕ್ತಃ ಸುಮಂಗಲಃ ಯೇ ಚೇಮಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷಶ್ರತ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಳ ಈಮಹೇ ಅಸವ್ಯೋ ವಸತ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತ ಉತೈಲಂ ಗೋಪಾ ಅದೃಶನ್ನ ದೃಶನ್ನುದಹಾರ್ಯಃ ಉತೈಲಂ ವಿಶ್ವಾ ಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಣಯಾದಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಢುಷೇ ಅಘೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ತೇಭ್ಯೋ ಕರಣಮಃ ಪ್ರಮಂಚ ಧನ್ವನಸ್ವಮುಭಯೋರಾಗ್ನಿಯೋರ್ಜಾಂ ಯಸ್ಯ ದೇಹಸ್ತ ಇಷವ ಪರಾತಾ ಭಗವೋ ವಪ ಅವತದ್ಯಧನುಸ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ದೇ ನಿಷೇರ್ಯ ಶಲ್ಯಾಮುಖಾ ಶಿವೋ ನ ಸುಮನಾ ಭವಾ ವಿಜ್ಯಂ ಧನು ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಹುಲಸ್ಯ ನಿಷಂಗತಿಃ ಯಾ ದೇಹೇ ತಿರ್ಮೀಡುಷ್ಟವಹಸ್ತೆ ಬಭೂವತೇ ಧನುಃ ತಯಾ ಸ್ವಾನ್ ವಿಶ್ವತಸ್ವಮ ಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ವಾಯುಧಾಯ ನಾದತಾಯ ದೃಷ್ಟವೇ ಉಭಾವ್ಯಾಮುತೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೆ ಧನ್ವನೋ ಹೇತಿರಸ್ತಾನ್ ಮೃಣಕ್ತು ವಿಶ್ವತಃ ಅಥೋಯ ಇಷುದಿಸ್ತವಾರೆ ಅಸ್ಮನ್ನಿದೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಿಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯು ಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ. नभो हिरण्यबाहवे सेनान्ये दिशाम् च पतये नभो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्मिन् जलायत्रिषेवते पतीनाम् पतये नमो नमो वप्लुषाय विव्याधिनेनानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्रायादता विने क्षेत्राणाम् पतये नमो नमः सूताया हन्त्यायवनानाम् पतये नमो नमो रोहितायस्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्छेर्घोषाय क्रन्दयते पत्तीनाम् पतये नमो नम कृत्स्नवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः खगुभाय निषङ्गिणेस्तेनानाम् पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पतये नमो नमो वंशते परिवंशते सायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः श्रिकावेभ्यो जिगागुं सद्भ्यो मुष्टताम् पतये नमो नमो शिवभ्यो नक्तम् चरद्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषु मध्यो जन्पावेभ्यश्च वो नमो नम आदन्वानेभ्यः प्रदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठद्भ्यो दावद्भ्यश्च वो नमो नमः सवाभ्यः सवापदिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपदिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्वन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुम् हदेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपदेभ्यश्च वो नमो नमो व्राजेभ्यो व्रातपदेभ्यश्च वो नमो नमो गणेभ्यो गणपदेभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः चुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रतेभ्यो रतपदेभ्यश्च वो नमो नमः सेनाभ्यः सेनारिभ्यश्च वो नमो नमः शत्रुभ्यः संग्रहेतृभ्यश्च वो नमो नमस्तक्षद्योरतकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मालेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनेभ्यश्च वो नमो नमश्वभ्यश्वपदेभ्यश्च वो नमः
नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च श्रुतिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिभिष्टाय च नमो नीरुष्णवाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वले च नमो अग्र्याय च प्रथमाय च नम आशवे चाजिराय च नमः शीघ्र्याय च शेभ्याय च नमः ऊर्ध्याय च वस्वन्याय च नमः स्रोतस्याय च त्वेभ्याय च नमः ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगन्याय च बुद्धयाय च नमः सोऽप्याय च प्रतिसद्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसाद्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेनाय चाशुरनाय च नमः शूराय च वबिन्दते च नमो वह्निने च वरूतिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च अनन्याय च नमो कृष्णवे च प्रमशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषु धिवते च नमस्तेष्वे चायुधिने च नमः स्वायुधाय च सुध्वन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैषन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः ईन्द्रियाय च तप्याय च नमो वात्याय च नेष्मियाय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे मघाय च दूरे वर्धाय च नमो हन्त्रे च हरियसे च नमो वृक्षेभ्यो हरिकेशे भ्यो नमस्काराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेभ्याय च गोल्याय च नमः पाद्याय च वाद्याय च नमः प्रतरणाय चोत्तरणाय च नमः आदार्याय च लाद्याय च नमः षष्ट्याय च भेन्द्याय च नमः श्रीगत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयनाय च नमः प्रपत्तिने च पुलस्तये च नमो गोष्याय च गृह्याय च नमः स्थल्याय च गेव्याय च नमः काट्याय च गह्वरेष्टाय च नमो हृदयाय च निवेश्याय च नमः
नमः पागुंसव्याय च रजस्याय च नमः षष्ट्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ओर्व्याय च सोर्व्याय च नमः पर्ण्याय च पर्णशत्याय च नमो पगुरमानाय च विघ्नते च नमः आख्यदते च प्रक्षिदते च नमो वक्त्रिकेभ्यो देवानागं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वर्केभ्यो नम आनिर्हतेभ्यो नम आमीमर्केभ्यः द्रावे अन्धतत्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभेर्मारोमो येषाम् किञ्चनाममत् या ते रुद्रशिवा तनो शिवा विश्वाः भेषजी शिवा रुद्रस्य भेषजी तया नो मृणजीवते इमागुम् रुद्राय तवसे कपत्तिने क्षयद्वीराय प्रबलामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टङ्ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो वयस्कृति क्षयद्वीराय नमसा विधेमते यच्छम् च योश्च मनुराय जे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अद्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररेरिषः मानस्तोके तलये मान आयुषि मानो गोषु मानो अश्वेषु रेरिषः वीरान्मानो रुद्रभावितो वदेर्हविष्मन्तो नमसा विदेवते आराते गोघ्र उत पोरुषग्ने क्षयद्वीराय त्वम् नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूयदा च नश्रम यच्च त्रिबर्हा स्तुहि श्रुतम् दत्त सदञ्जुवारम् मृगन्न भीम उपहत्वमुग्रम् ऋणाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेना परिणो रुद्रस्य हेतर्विणक्त्वपरि त्वेषस्य दुर्मतिरकायोः अवस्थिरा भगवद्भ्यस्तनुष्वमेव स्तोकाय तनयाय मृणया नीदुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधन्निधाय कृत्यम् वसान आचर पिनाकम् दिव्रदागरि विकीर्तविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम्हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तादामीशानो भगवः पराचीनामुकाकृधे सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या लेशागुम् सहस्रयोचने वधन्वालि तन्मसि अस्मिन् महत्यर्णवेन्दरिक्षे भवादि नीलग्रीवाश्रिकण्ठा सर्वादः क्षमाचराः नीलग्रीवाश्रिकण्ठादिवकुम् रुद्रा उपश्रिताः ये वृक्षेषु सत्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासः कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु विमतो जनान् येर्वथाम् परिरक्षय ऐरभृदाय व्युदः ಯೇ ತೀರ್ಥಾನಿ ಪ್ರಚರಂತ ಸುಖಾವಂತೋ ನಿಷಂಗಿನಃ ಯೇತಾವಂತಶ್ಚ ಭೂಯಾಗುಂಸಶ್ಚ ದಿಶೋ ರುದ್ರಾವಿತಸ್ಥಿರೇ ತೇಷಾಗುಂಸಾಶ್ರಯೋಜನೆ ವಧನ್ವಾನಿ ತನ್ಮಸಿ ನಮೋ ರುದ್ರೇಭ್ಯೋ ಯೇ ಪೃಥಿವ್ಯಾ ಯೇಂದ್ರಕ್ಷೇ ಯೇ ದಿವಿ ಯೇಷಾಮನ್ನಂ ವಾದೋ ವರ್ಷಮಿಷವಸ್ತೇಭ್ಯೋ ದಶ ಪ್ರಾಚೇರ್ದಶ ದಕ್ಷಿಣಾ ದಶ ಪ್ರದೇಶೇರ್ದಶೋ ದೇಶೇರ್ದಶೋ ದ್ವಾರೇಭ್ಯೋ ನಮಸ್ತೆ ನೋ ಮೃಡಯಂತು ತೇಯಂ ವಿಶ್ವೋ ಯಶ್ಚ ನೋ ದ್ವೇಷಿತಂ ವೋಜಂ ವೇದಧಾಮಿ ತ್ರ್ಯಂಬಕಯ್ಯಜಾಮಹೇ ಸುಗಂಧಿಂ ಪುಷ್ಟಿವರ್ಧನಂ ಉರ್ವಾರುಕಮಿವ ವಂದನಾನ್ ಹೃತ್ಯೋರ್ಮುಕ್ಷೇಯಮಾಮೃತಾತ್ ಯೋ ರುದ್ರೋ ಅಗ್ನಯೋ ಅಪ್ಸುಯ ಓಷಧೀಷು ಯೋ ರುದ್ರೋ ವಿಶ್ವ ಭುವನಾದಿವೇಶ ತಸ್ಮೈ ರುದ್ರಾಯ ನಮೋ ಅಸ್ತು ಯೇತೇ ಸಹಸ್ರಮಯುತಂ ಪಾಶಾ ಮೃತ್ಯೋ ಮರ್ತ್ಯಾಯ ಹಂತವೇ ತಾನ್ ಯಜ್ಞಸ್ಯ ಮಾಯಯಾ ಸರ್ವಾನವಯಾಮಹೇ ನೃತ್ಯವೇ ಸ್ವಾಹಾ ನೃತ್ಯವೇ ಸ್ವಾಹಾ ಪ್ರಾಣಾನಾಂ ಗ್ರಂಥಿರಸಿರದ್ರೋಮಾ ವಿಶಾಂತಕಃ ತೇನಾನೇನಾಪ್ಯಾಯಸ್ವಾ ನಮೋ ರುದ್ರಾಯ ವಿಷ್ಣವೇ ಮೃತ್ಯುರ್ಮೇ ಪಾಹಿ ತಮುಷ್ಟು ಹಿಯಶ್ವಿಷ ಸುಧನ್ವಾಯೋ ವಿಶ್ವಸ್ಯ ಕ್ಷಯತಿ ಭೇಷಜಸ್ಯ ಯಕ್ಷ್ವಾ ಮಹೇಶೌ ಮನಸಾಯ ರುದ್ರಂ ನಮೋ ಭಿರ್ದೇವಮಸುರಂದುವಸ್ಯ ಅಯಂ ಮೇ ಹಸ್ತೋ ಭಗವಾನ್ ಅಯಂ ಮೇ ಭಗವತ್ತರಃ ಅಯಂ ಮೇ ವಿಶ್ವಭೇಷಜೋಯಗುಂ ಶಿವಾಭಿಮರ್ಶನಃ ಓಂ ಶಾಂತಿ 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 ಓಂ ಅಗ್ನಾ ವಿಷ್ಣೋ ಸಜೋಷತೇ ಮಾವದ್ಧಂತು ವಾಂಗಿರಃ ಜುನ್ನೈರಾಜೇಭಿರಾಗತಂ ವಾಜಶ್ಚ ಮೇ ಪ್ರಸವಶ್ಚ ಮೇ ಪ್ರಯತಿಶ್ಚ ಮೇ ಪ್ರಸಿತಿಶ್ಚ ಮೇ ಭೀತಿಶ್ಚ ಮೇ ಕ್ರತುಶ್ಚ ಮೇ ಸ್ವರಶ್ಚ ಮೇ ಶ್ಲೋಕಶ್ಚ ಮೇ ಶ್ರಾವಶ್ಚ ಮೇ ಶ್ರುತಿಶ್ಚ ಮೇ ಜ್ಯೋತಿಶ್ಚ ಮೇ ಸುವಶ್ಚ ಮೇ ಪ್ರಾಣಶ್ಚ ಮೇ ಪಾನಶ್ಚ ಮೇ ಧ್ಯಾನಶ್ಚ ಮೇ ಸುಶ್ಚ ಮೇ ಚಿತ್ತಂ ಚ ಮಾಧೀತಂ ಚ ಮೇ ವಾಚ್ಯ ಮೇ ಮನಶ್ಚ ಮೇ ಚಕ್ಷುಶ್ಚ ಮೇ ಶ್ರೋತ್ರಂ ಚ ಮೇ ದಕ್ಷಶ್ಚ ಮೇ ಬಲಂ ಚ ಮಓಜಶ್ಚ ಮೇ ಸಹಶ್ಚ ಮಆಯುಶ್ಚ ಮೇ ಜರಾ ಚ ಮಆತ್ಮಾ ಚ ಮೇ ತನೋಶ್ಚ ಮೇ ಶರ್ಮ ಚ ಮೇ ವರ್ಮ ಚ ಮೇ ಅಂಗಾನಿ ಚ ಮೇ ಸ್ಥಾನಿ ಚ ಮೇ ಪರೋಗುಂಷಿ ಚ ಮೇ ಶರೀರಾಣಿ ಚ ಮೇ ಜೈಷ್ಠ್ಯಂ ಚ ಮಾಧಿಪತ್ಯಂ ಚ ಮೇ ಮನ್ಯುಶ್ಚ ಮೇ ಭಾಮಶ್ಚ ಮೇ ಮಶ್ಚ ಮೇಂಭಶ್ಚ ಮೇ ಜೇಮಾ ಚ ಮೇ ಮಹಿಮಾ ಚ ಮೇ ಬಲಿಮಾ ಚ ಮೇ ಪ್ರತಿಮಾ ಚ ಮೇ ವರ್ಷ್ಮಾ ಚ ಮೇ ದ್ರಾಘುಯಾ ಚ ಮೇ ವೃದ್ಧಂ ಚ ಮೇ ವೃದ್ಧಿಶ್ಚ ಮೇ ಸತ್ಯಂ ಚ ಮೇ ಶ್ರದ್ಧಾ ಚ ಮೇ ಜಗಚ್ಛ ಮೇ ಧನಂ ಚ ಮೇ ವಶಶ್ಚ ಮೇ ದ್ವಿಷಿಶ್ಚ ಮೇ ಕ್ರೀಡಾ ಚ ಮೇ ಮೋದಶ್ಚ ಮೇ ಜಾತಂ ಚ ಮೇ ಜನಿಷ್ಯಮಾನಂ ಚ ಮೇ ಸೂಕ್ತಂ ಚ ಮೇ ಸುಕೃತಂ ಚ ಮೇ ವಿತ್ತಂ ಚ ಮೇ ವೇದ್ಯಂ ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭವಿಷ್ಯಚ ಮೇ ಸುಗಂ ಚ ಮೇ ಸುಪಥಂ ಚ ಮರುದ್ಧಂ ಚ ಮರುದ್ಧಿಶ್ಚ ಮೇ ಕ್ಲೃಪ್ತಂ ಚ ಮೇ ಕ್ಲೃಪ್ತಿಶ್ಚ ಮೇ ಮತಿಶ್ಚ ಮೇ ಸುಮತಿಶ್ಚ ಮೇ ಶಂಚ ಮೇ ಮಯಶ್ಚ ಮೇ ಪ್ರಿಯಂಚ ಮೇನು ಕಾಮಶ್ಚ ಮೇ ಕಾಮಶ್ಚ ಮೇ ಸೌಮನಸಶ್ಚ ಮೇ ಭದ್ರಂ ಚ ಮೇ ಶ್ರೇಯಶ್ಚ ಮೇ ವಶ್ಯಶ್ಚ ಮೇ ಯಶಶ್ಚ ಮೇ భగశ్చ మే ద్రవిణం చ మే యంతా చ మే ధత్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రజోశ్చ మే శీలం చ మే లయశ్చ మరుతం చ మే మృతం చ మే యక్ష్మం చ మే నామయచ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మే నమిత్వం చ మే భయం చ మే సుఖం చ మే శయనం చ మే శోషా చ మే సుదినం చ మే ఓర్చ మే సోకృతా చ మే పయశ్చ మే రసశ్చ మే ఘృతం చ మే మధు చ మే సద్భిశ్చ మే సపేతిశ్చ మే కృషిశ్చ మే వృష్టిశ్చ మే జైత్రం చ మౌద్భిద్యం చ మే రయిశ్చ మే రాయశ్చ మే పుష్టం చ మే పుష్టిశ్చ మే త్రిభుచ మే ప్రభుచ మే బహుచ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే క్షితిశ్చ మే ఓయవాశ్చ మే నం చ మే శుచ్చ మే బ్రీహయశ్చ మే యవాశ్చ మే మాషాశ్చ మే తిలాశ్చ మే ముద్గాశ్చ మే ఖల్వాశ్చ మే గోధూమాశ్చ మే మసురాశ్చ మే ప్రియంగవశ్చ మే నవశ్చ మే శ్యామాకాశ్చ మే నీవారాశ్చ మే అశ్వాశ్చ మే మృత్తికాశ్చ మే గిరయశ్చ మే పర్వతాశ్చ మే శిఖరాశ్చ మే వనస్పతయశ్చ మే హిరణ్యం చ మే యశ్చ మే శేషం చ మే ప్రభుశ్చ మే శ్యామం చ మే లోహం చ మే అగ్నిశ్చ మాపశ్చ మే మేరుధశ్చ మఔషధయశ్చ మే కృష్టపచ్యం చ మే కృష్టపచ్యం చ మే గ్రామ్యాశ్చ మే పశవ ఆరణ్యాశ్చ యజ్ఞేన కల్పంతాం విత్తం చ మే విత్తిశ్చ మే భూతం చ మే భూతిశ్చ మే వసు చ మే వసతిశ్చ మే కర్మ చ మే శక్తిశ్చ మే అర్థశ్చ మఏమశ్చ మఇతిశ్చ మే గతిశ్చ మే అగ్నిశ్చ మఇంద్రశ్చ మే సోమశ్చ మఇంద్రశ్చ మే సవితా చ మఇంద్రశ్చ మే సరస్వతీ చ మఇంద్రశ్చ మే పూషా చ మఇంద్రశ్చ మే బృహస్పతిశ్చ మఇంద్రశ్చ మే మిత్రశ్చ మఇంద్రశ్చ మే వరుణశ్చ మఇంద్రశ్చ మే త్వష్టా చ మఇంద్రశ్చ మే ధాతా చ మఇంద్రశ్చ మే విష్ణుశ్చ మఇంద్రశ్చ మే శ్వినౌ చ మఇంద్రశ్చ మే మరుతశ్చ మఇంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మఇంద్రశ్చ మేంతరిక్షం చ మఇంద్రశ్చ మే ద్యౌశ్చ మఇంద్రశ్చ మే దిశశ్చ మఇంద్రశ్చ మే మూర్ధా చ మఇంద్రశ్చ మే ప్రజాపతిశ్చ మఇంద్రశ్చ మే అగుంశుశ్చ మే రశ్మిశ్చ మే దాభ్యశ్చ మే ద్రిపదిశ్చ మ ఉపాగుంశుశ్చ మే అంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతిప్రస్థానశ్చ మే శుక్రశ్చ మే మంత్రే చ మ ఆగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతుగ్రహాశ్చ మేతి గ్రాహ్యాశ్చ మ ఐంద్రాగ్నశ్చ మే वैश्वदेवश्च मे मरुत्मतेयाश्च मे माहेन्द्रश्च महाधित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्रीवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे विष्णुयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतवृक्ष म आधवनीयश्च म आग्नेयं च मे अभिर्धानं च मे गृहाश्च मे सदश्च मे पुरोराशाश्च मे पचताश्च मे बभृदश्च मे स्वगाकारश्च मे अग्निश्च मे धर्मश्च मेऽर्घश्च मे सूर्यश्च मे प्राणश्च मेश्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृक्ष मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतश्च मे व्रतं च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेता गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे दृत्यवाच्च मे दृत्यौहे च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहे च मे पष्टवाच्च मे पष्टौहे च म वृक्षा च मे वशा च मृषभश्च मे देहश्च मे नड्वाञ्च मे धेनुश्च महायुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता गुश्रोत्रैयज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एकाश मे त्रिश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेऽष्टाचत्वारिगुंशच्च मे वाजश्च प्रथवश्च बीजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनेर्बृहस्पतिरुक्थामदानि सगुंसिषद्विश्वे देवासोक्तवाध पृथिविमा धर्मा माहिगुंसे मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुमदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ओ शान्ति शान्ति शान्तिः। ॐ तच्छय्योरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजं शन्नो अस्तु द्विपदे शं चतुष्पदे। ॐ शान्ति शान्ति शान्तिः। सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद स भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येशानः यदन्नेनातिरोहति एतावानस्य महिमा अतो जायादुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्व उदयत्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवायज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म यद्मः शरद्भवे सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवा यद्यज्ञम् तन्वाणाः अबध्नम् पुरुषम् पशुम् तञ्यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यादृशयश्च ये तस्माद्यज्ञात् सर्वहुतः संहृतम् पृषदाज्यम् पशोगुस्तारुश्चक्रे वायव्यान आरण्यान्याम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋषः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वाजायन्त ये केशो भयादतः गावोः जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदधुः तदिदा व्यकल्पयन् मुखम् किमस्य कौ बाहो कावूरुपादामुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यकृतः पूरु तदस्य यद्वैष्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिशश्रोत्रात् तथा लोकागुम् अकल्पयन् वेलाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदाजहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् केहनाकम् महिमानश्च चन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्य सम्भूत पृथिव्यैरसाच विश्वकर्मणः समवर्तताभि तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो ऋषाय ब्राह्मये ऋषम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे रेष्यते लक्ष्मीस्य पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छैयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिरातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमेहन्ने तन्मेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीनागुम् राजा अप्येषागस्तपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्रा अथो कृष्णा अथो श्वेता अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खण्फण्व्रसे ॐ शान्ति शान्ति शान्तिः ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ब्रह्मविदात् प्राप्नोति परम् तदेषाभ्युक्ता सत्यम् ज्ञानमनन्तम् ब्रह्मा यो वेदनिहितम् गुहायाम् परमे व्योमन् सोऽश्नुते सर्वान् कामान् सः ब्रह्मणा विपश्चितेति तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः आकाशाद्वायुः वायोरग्निः अग्नेरापः अद्य पृथिवी पृथिव्या ओषधयः ओषधीभ्योऽन्नम् अन्नात् पुरुषः स वायेष पुरुषोन्नरसमयः तस्येदमेव शिरः अयम् दक्षिणपक्षः अयमुत्तरपक्षः अयमात्मा इदम् पुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति अन्नाद्वये प्रजा प्रजायन्ते याश्च पृथिवी कुश्रिताः अथो अन्ये नैव जीवन्ति अथैनदप्रियन्त्यन्ततः अन्नगुम् हि भूतानाम् ज्येष्ठम् तस्मात् सर्वौषधमुच्यते सर्वम् वैते न वाप्नुवन्ति येनम् ब्रह्मोपासते अन्नगुम् हि भूतानाम् ज्येष्ठम् तस्मात् सर्वौषधमुच्यते अन्नाद्भूतानि जायन्ते जातान्यन्येन वर्धन्ते अद्यदेति च भूतानि तस्मादन्नम् तदुच्यत इति तस्माद्वा एतस्मादन्नरसमयात् अन्योऽन्तर आत्मा प्राणमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्य प्राण एव शिरः व्यानो दक्षिणपक्षः अपान उत्तरपक्षः आकाश आत्मा पृथिवी पुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति प्राणम् देवा अनुप्राणन्ति मनुष्या पशवश्च ये प्राणो हि भूतानामायुः तस्मात् सर्वायुषमुच्यते सर्वमेव त आयुर्यन्ते ये प्राणम् ब्रह्मोपासते प्राणो हि भूतानामायुः तस्मात् सर्वायुषमुच्यत इति तस्यैषदेव शारीर आत्मा यः पूर्वस्या तस्माद्वा एतस्मात् प्राणमयात् अन्योऽन्तर आत्मा मनोमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्य यजुरेव शिरः ऋग्दक्षिणपक्षः सामोत्तरपक्षः आदेश आत्मा अथर्वाङ्गिरसपुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दम् ब्रह्मणो विद्वान् न बिभेति कदाचनेति तस्यैष एव शारीर आत्मा यः पूर्वस्य तस्माद्वा ह्येतस्मान्मनोमयात् अन्योऽन्तर आत्मा विज्ञानमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्य श्रद्धैव शिरः हृतम् दक्षिणपक्षः सत्यमुत्तरपक्षः योग आत्मा महःपुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति विज्ञानम् यज्ञम् तनुते कर्माणि तनुतेऽपि च विज्ञानम् देवा सर्वे ब्रह्मज्येष्ठमुपासते विज्ञानम् ब्रह्मचेद्वेदा तस्माच्चेन प्रमाद्यते शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुत इति तस्यैष एव शरीर आत्मा यः पूर्वस्य तस्माद्वा एतस्माद्विज्ञानमयात् अन्योऽन्तर आत्मानन्दमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्य प्रियमेव शिरः मोदो दक्षिणपक्षः प्रमोद उत्तरपक्षः आनन्द आत्मा ब्रह्मपुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति असन्नेव स भवति असद्ब्रह्मेति वेद चेत् अस्ति ब्रह्मेति चेद्वेद सन्तमेनम् ततो विदुरिति तस्यैष एव शरीर आत्मा यः पूर्वस्य अथातोऽनुप्रश्नाः उत विद्वानमुल्लोकम् प्रेत्या कश्चन गच्छति आहो विद्वानमुल्लोकम् प्रेत्या कश्चित् समश्नुता शोकामयता बहुस्याम् प्रजायेति सतपोतप्यता सतपस्तप्त्वा इदगुम् सर्वमसृजत यदिदम् किञ्च तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सत्यत्यच्छाभवत् निरुक्तम् च निरुक्तम् च निलयनम् च निलयनम् च विज्ञानम् च विज्ञानम् च सत्यम् चानृतम् च सत्यमभवत् यदिदम् किञ्च तत्सत्यमित्याचक्षते तदप्येष श्लोको भवति असद्वा इदमग्र आसीत् तदो वै सदजायत तदात्मानग्र स्वयमकुरुत तस्मात् तत्सुकृतमुच्यत इति यद्वै तत्सुकृतम् रसो वै सः रसद्युत्येवायम् लब्ध्वानन्दे भवति को हेवान्यार्थप्राण्यात् यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्दयाति यदा ह्येवैष एतस्मिन्न दृश्येनाग्ने निरुक्ते निलयने भयम् प्रतिष्ठाम् विन्दते अथ सोभयम् गतो भवति यदा ह्येवैष एतस्मिन्नुदरमन्तरम् कुरुते अथ तस्य भयम् भवति तत्रैव भयम् विदुषो मन्वानस्य तदप्येष श्लोको भवति भीषास्माद्वातः पवते भीषोदेति सूर्यः भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम इति सैषानन्दस्य मीमागुंसा भवति युवास्यात्साधु युवाध्यायकः आशिष्ठो दृष्टो बलिष्ठः तस्येयम् पृथिवी सर्वा वित्तस्य पूर्णा स्यात् स एको मानुष आनन्दः तेने शतम् मानुषा आनन्दाः स एको मनुष्य गन्धर्वाणामानन्दः श्रोत्रियस्य चाकामः तस्य तेने शतम् मनुष्य गन्धर्वाणामानन्दाः स एको देवगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामः तस्य तेने शतम् देवगन्धर्वाणामानन्दाः स एक पितृणाम् चिरलोकलोकानामानन्दः श्रोत्रियस्य चाकामः तस्य तेने शतम् पितृणाम् चिरलोकलोकानामानन्दाः स एक आजानजानान् देवानामानन्दः श्रोत्रियस्य चाकामः तस्य तेये शतमाजानजानाम् देवानामानन्दाः स एकः कर्म देवानाम् देवानामानन्दः ये कर्मणा देवानपि यन्ते श्रोत्रियस्य चाकामः तस्य तेये शतम् कर्म देवानाम् देवानामानन्दाः स एको देवानामानन्दः श्रोत्रियस्य चाकामः तस्य तेये शतम् देवानामानन्दाः स एक इन्द्रस्यानन्दः श्रोत्रियस्य चाकामः तस्य तेये शतमिन्द्रस्यानन्दाः स एको बृहस्पतेरानन्दः श्रोत्रियस्य चाकामः तस्य तेये शतम् बृहस्पतेरानन्दाः स एक प्रजापतेरानन्दः श्रोत्रियस्य चाकामः तस्य तेये शतम् प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामः तस्य स यश्चायम् पुरुषे यश्चासावादित्ये स एकः स य एवंवित् अस्माल्लोकात् प्रेत्या एतमन्नमयमात्मानमुपसङ्क्रामति एतम् प्राणमयमात्मानमुपसङ्क्रामति एतम् मनोमयमात्मानमुपसङ्क्रामति एतम् विज्ञानमयमात्मानमुपसङ्क्रामति एतमानन्दमयमात्मानमुपसङ्क्रामति तदप्येष श्लोको भवति यतो वाचो निवर्तन्ते अप्राप्यमनसा सह आनन्दम् ब्रह्मणो विद्वान् न बिभेति कुतश्च नेति एतगुम्हवावन तपति किमहगुम् साधुना करवम् किमहम् पापमकरवमिति स य एवम् विद्वानेते आत्मान स्पृणुते उवे हेवैषेते आत्मानग्रस्पृणुते य एवम् वेद इत्युपनिषत् सह नाभवतु सह नौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावतीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु। ॐ शान्ति शान्ति शान्तिः।